एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। यम पञ्चक पर्वणः अन्तिमे दिवसे अद्य भातृटीका पर्व समायोज्यते। यत्र भगिन्यः स्वकीय भ्रातृणाम् सुख समृद्धि दीर्घायुष्याणि अभिलष्य तान् टीकाम् परिधापयन्ति। टीकायाः परिधापनावसरे भगिन्यो धार्मिक विध्यनुसारेण मण्डपम् निर्माय अष्टानाम् चिरञ्जीविनाम् यमस्य यमुनायाश्च पूजन पुरस्सरम् तैलधाराया आवेष्ट्य सप्तरङ्गमयीम् पञ्चरङ्गमखमली शतपत्रिकाणाम् मालाः समर्प्य विविध फल व्यञ्जन मिष्ठान्नानि प्रदाय च भ्रातृणाम् चिरायुष्यम् कामयन्ते। भ्रातरश्च भगिनीः प्रपूज्य स्वशक्त्यनुसारेण ताभ्यः वस्त्रभूषणादीन् उपहारान् समर्पयन्ति। एतासाम् अटल सुख सौभाग्य समृद्धि चिरायुष्याणि च अभिलषन्ति। पूर्वं कदाचित् स्वभवनं प्राप्तो यमः तदीय भगिन्या यमुनया स्वसम्मानं टीकां परिधाप्य फलपुष्पादीनि समर्प्य च अभ्यर्थितः। ततः प्रवृत्ति भ्रातृभगिन्योर्मध्ये टीका परिधापन पूर्वकं उपहार प्रदान परम्परा प्रारभ्यति पौराणिक वृत्तं वर्तते। भगिनीविहीना भ्रातरः अद्य काष्ठमण्डपस्य राजपुष्करिण्याः मध्ये अवस्थितस्य गोपालेश्वर महादेवस्य दर्शन पूजने विदाय ललाटे तदीय प्रसादत्वेन टीकां परिददति। मन्दिरमिदं प्रतिवर्षम् अस्मिन्नेव दिवसे उद्घाट्यते। भ्रात्रे टीकायाः शुभमुहूर्तः अद्य पूर्वाह्नस्य सप्तत्रिंशत् कलोत्तरैकादशवादने अस्तीति नेपाल पञ्चाङ्ग निर्णायक समितेः अध्यक्ष प्राध्यापकः डा रामचन्द्र गौतमः ज्ञापयति। भगिनी रयिताः भ्रातरः काष्ठमण्डपस्य राज्ञी पुष्करिण्याः मध्यभागे स्थितस्य बालगोपालेश्वर मन्दिरस्य दर्शनं विदाय टीकां धारयन्ति। अद्य प्रातः पञ्चवादनात् सायं पञ्चवादनं यावत् बालगोपालेश्वर स्य दर्शनाय व्यवस्था विहिता वर्तते। काष्ठमण्डप महानगरपालिकायाः राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य च सहकार्येण निर्मिते केवलं भ्रातृटीकायाः दिवसे उद्घाट्यमाने राज्ञी पुष्करिण्याः मध्यवर्तिनी बालगोपालेश्वर मन्दिरे दर्शनस्य व्यवस्था विहिता वर्तते। उपलक्ष्यस्मिन् शुभकामना सन्देशं ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा दीपावली पर्वणा समेषां नेपालिना मध्ये पारस्परिक सद्भाव सहिष्णुता भ्रातृत्वभावान् अभिवर्ध्य राष्ट्रैकताम् अतिरिक्तां सबलां विधातुं साहाय्यं प्रदीयते इति विश्वास व्यक्तोऽस्ति। राष्ट्रपतिना भण्डारिणा सन्देशे अस्य वर्षस्य सर्वान् पर्वोत्सवान् कोविड उनविंशतेः कारणेन आत्मनः स्वकीय परिवारस्य सदस्यानां समाजस्य च बृहत् सुरक्षां ध्यात्वा समायोजयितुम् आहूतं वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे उक्तमस्ति अस्याः महामार्याः विरुद्धे टीकाकरणम् अधुनावधि विकसितं नास्तीति हेतोः पूर्वसावधानतायै समये समये हस्तप्रक्षालनं मुखावरणिकायाः यथार्थ रीत्या प्रयोगः व्यक्तिनां मध्ये मौलिकदूर्याः भौतिकदूर्याः संस्थापनं च न विस्मर्तव्यानि। भ्रातृटीकायाः समायोजनात्मिक्या अस्माकं मौलिकसंस्कृति परम्परया प्रकृतेः मानवजीवनस्य प्राणिजगतश्च अन्योन्या सेत सम्बन्धस्य प्रकाशनेन सह भ्रातृभगिन्योः पारस्परिक स्नेहस्य प्रगाढीकरणात्मिक्या देवसी भैलो कार्यक्रमायोजनात्मिक्या च विशुद्ध नेपाली संस्कृत्या वृहत् सामाजिकैकताम् प्रगाढीकर्तुम् सहायता प्रदीयते इति राष्ट्रपतिना सन्देशे विश्वास व्यक्तो वर्तते। सन्देशे राष्ट्रपतिना भण्डारिणा पौराणिक व्यावहारिक सांस्कृतिक मनोवैज्ञानिक महत्वस्य पर्वेदं प्रकाशस्यापि पर्व अस्तीति उल्लिखन्त्या दीपावली पर्वणः माध्यमेन प्रकटितः मानवीय प्रकाश अस्मान् सर्वान् सत्यस्य न्यायस्य च मार्गे अग्रेसरा भवितुं प्रेरयतु इति कामना विहिता अस्ति। नेवार समुदायस्य कतिचन जनाः अद्यैव महपूजां च कुर्वाणाः सन्ति। गतदिवसतः शततमः नेपाल संवत्सरः प्रारब्धो वर्तते। नेपाल संवत्सरस्य प्रवर्तकः शंकर साख्वा वर्तते। अवसरेऽस्मिन् शुभकामना सन्देशं ददता प्रधानमन्त्रिणा केपी शर्मा ओलिना राष्ट्रस्य समृद्धये जनतायाः सुखाप्तये च एकताबद्धा भवितुं सर्वे आहूताः सन्ति। लक्ष्मी पूजायाः क्रमे पर्सा जनपदस्य सर्सु स्थानेषु अग्निदाह दुर्घटितो वर्तते। अग्निदाहेन एको जनः मृतोऽस्ति। दीपावल्यै प्रज्वालितेन दीपेन गृहे अग्निदहनं दुरापन्नं सत् पर्सा जनपदस्य बहुदर मार्ग ई नगरपालिकायाः अष्टम वडा क्षेत्र वर्तिन्या रामनगरिया मनबोध साहस्य पञ्चदश वर्षीय पुत्री मना कुमारी शाह दग्ध्वा मृत्येति पर्सा जनपद प्रहरी कार्यालय ज्ञापयति। एवमेव पाँच जनपदस्य पृथक पृथक स्थानेषु दुरापन्ने न अग्निदाहेन नवलक्षतोऽपि अधिकानां रूप्यकाणां धन सम्पदः विनष्टाः सन्ति। एवमेव लक्ष्मीपूजाया क्रमे विराटनगरस्य द्वयो आपणयोः दुर्घटितेन अग्निदाहेन अष्टषष्टेर् लक्षाणां रूप्यकाणां परिमाणस्य सामग्र्यः दग्ध्वा विनष्टाः सन्ति। मोरङ जनपद प्रहरी कार्यालयस्य अनुसारेण विराटनगर महानगरपालिकायाः दशमवडा क्षेत्रवर्तिनः ट्राफिक चोक स्थानस्य दिनेश अग्रवालस्य वस्त्रजातापणे दुरापन्नेन अग्निदाहेन आपणस्य अभ्यन्तरे विद्यमानः स्कर सहिता आसन षष्ठेर लक्षाणाम रूप्यकाणाम सामग्र्य दग्ध्वा विनष्टा सन्ति। एवं विराटनगर महानगर पालिकाया नवमवडा क्षेत्र वर्तिन वसयान विश्राम स्थलस्य निकटे अवय अर्यालस्य उष्णद वस्त्रागारे दुरापन्नेन अग्निदाहेन अष्टलक्षाणाम रूप्यकाणाम मूल्यमिता सामग्र्य दग्ध्वा विनष्टा सन्तीति प्रहरी ज्ञापयति। गतदिने अतिरिक्ताः 1,778 जनाः कोरोना संक्रमणात् मुक्ताः वर्तन्ते। अद्यावधि नेपाले कोरोना मुक्तानां जनानां प्रतिशतं 0.72% साम्प्रतम् आराष्ट्रं 35,525 च सक्रिय संक्रान्ताः जनाः वर्तन्ते। एतेषु 48,49,400 जनाः गृहकान्तवासेषु अन्य विभिन्नेषु चिकित्सालयेषु संस्थागत एकान्तवास केन्द्रेषु च वर्तन्ते। गतदिने अतिरिक्तेषु 1,477 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्यः काष्ठमण्डपो उपत्यकायाम् एव 800 च कोरोना विषाणुना संक्रान्ताः जनाः वर्धिताः सन्ति। कोरोना संक्रमणेन ह्य अतिरिक्ताः 6 जनाः मृताः। अद्यावधि नेपाले कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 121,702 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। पाँचथ जनपदस्य हिलिहाङ ग्रामपालिकायाः तृतीयवडा क्षेत्रे कोरोना संक्रमणेन जनैकस्य मृत्युः अनन्तरं सप्ताहाय परिपिधानम् उद्घुष्टं वर्तते। कोरोना संक्रमणस्य कारणेन स्थानीयस्य 74-वर्षीयस्य पुरुषस्य मृत्योः पश्चात् सम्भावित संक्रमणं रोद्धुं गोपेटार आपणक्षेत्रं सप्ताहाय परितः पिधापितमस्तीति वडाध्यक्ष मदन गौतमः ज्ञापयति। जनकपुर धामनी 58 भाण्ड परिमितेन एसिड नाम्ना अति ज्वलनशील पदार्थेन सह एको व्यवसायी प्रहरेण निगृहीतो वर्तते। गत शनिश्चरवासरे घटितायाः एसिड पदार्थाक्रमणस्य घटनायाः धनुषा प्रहरेण अनुसन्धानस्य क्रमे 58 भाण्ड परिमितेन एसिड पदार्थेन सहित स्थानीय व्यापारी नागेन्द्र शाह निगृहीत इति धनुषा प्रहरी कार्यालय ज्ञापयति। गत शनिश्चरवासरे पत्न्यां पुत्र्यांच एसिड पदार्थ प्रहारकं जनकपुर धाम्नः विंशवडा क्षेत्रस्य देवपुरागृह वर्तिनं 24-वर्षीयं सञ्जीव साहं गत शनिश्चरवासरे एव निगृह्य घटनायाः अनुसन्धानस्य क्रमे एसिड पदार्थ विक्रेता नागेन्द्र साहुपि प्रहरिणा निगृहीतोऽस्ति। इति समाचारः।